कौसल्या सुप्रजा राम पूर्वा संध्या प्रवर्तते उत्तिष्ठ नरशार्दूल कर्तव्यं दैवमान्धिकम् कौसल्या सुप्रजा राम पूर्वा संध्या प्रवर्तते उत्तिष्ठ नरशार्दूल कर्तव्यं दैवमान्धिकम् उत्तिष्ठोत्तिष्ठ गोविन्द उत्तिष्ठ गरुडध्वज उत्तिष्ठ कमला कांता त्रैलोक्यं मंगलं कुरु उत्तिष्ठोत्तिष्ठ गोविन्द उत्तिष्ठ गरुडध्वज उत्तिष्ठ कमला कांता त्रैलोक्यं मंगलं कुरु मातः समस्त जगतां मधुकैटभारे वक्षो विहारिणि मनोहर दिव्यमूर्ते श्रीस्वामिनिश्रित जनप्रिय दानशीले श्री वेंकटेश दयिते तव सुप्रभातम् मातः समस्त जगतां मधुकैटभारे वक्षो विहारिणि मनोहर दिव्यमूर्ते श्रीस्वामिनिश्रित जनप्रिय दानशीले श्री वेंकटेश दयिते तव सुप्रभातम् तव सुप्रभातमरविन्द लोचने भवतु प्रसन्न मुख चन्द्र मण्डले विधि शङ्करेन्द्र वनिताभिरक्षिते वृषशैलनाथ दयिते दयानिधे अत्र्यादि सप्त ऋषयस्वमुपास्य सन्ध्या आकाश सिन्धु कमलानि मनोहराणि आदाय पादयुगमर्चयितुम् प्रपन्नाः शेषाद्रिशेखर विभो तव सुप्रभातम् पञ्चाननाब्ज भव षण्मुख वासवाद्या त्रैविक्रमादिचरितम् विबुधा सुवन्ति भाषापतिः पठति वासव शुद्धिमारात् शेषाद्रिशेखर विभो तव सुप्रभातम् ईषत् प्रफुल्ल सरसीरुहनारिकेल पूगद्रुमादि सुमनोहर पालिकानाम् आवाति मन्दमनिलः सह दिव्यगन्धैः शेषाद्रिशेखर विभो तव सुप्रभातम् उन्मील्य नेत्रयुगमुत्तम पञ्जरस्था पात्रावशिष्ट कदलीफल पायसानि भुक्त्वा सलीलमथ केलिशुका पठन्ति शेषाद्रिशेखर विभो तव सुप्रभातम् तन्त्री प्रकर्ष मधुरस्वनया विपञ्च गायत्यनन्द चरितम् तव नारदोऽपि भाषा समग्रमथ सत्कदचार रम्यम् शेषाद्रिशेखर विभो तव सुप्रभातम् भृङ्गावळी च मकरन्दरसानुविद्ध झङ्कार गीत निनदैस्तय सेवनाय गिर्यात्युपान्त सरसी कमलोदरेभ्य शेषाद्रिशेखर विभो तव सुप्रभातम् योषा गणेन वरदद्धि विमध्यमाने घोषालयेषु दधिमन्थन तीव्र घोषा रोषात्कलिम् विदधते कगुभश्च कुम्भा शेषाद्रिशेखर विभो तव सुप्रभातम् पद्मे शमित्र शतपत्र गतालिवर्गा हर्तुम् श्रियम् कुवलयस्य निजाङ्गलक्ष्म्या भेरी निनादमिव बिभ्रति तीव्रनादम् शेषाद्रिशेखर विभो तव सुप्रभातम् श्रीमन्नभीष्टवरदाखिल लोकबन्धो श्री श्रीनिवास जगदेक दयैक सिन्धो श्रीदेवतादृग भुजान्तर दिव्यमूर्ते श्रीवेङ्कटाचलपते तव सुप्रभातम् श्रीमन्नभीष्टवरदाखिल लोकबन्धो श्री श्रीनिवास जगदेक दयैक सिन्धो श्रीदेवतागृह भुजान्तर दिव्यमूर्ते श्रीवेङ्कटाचलपते तव सुप्रभातम् श्रीस्वामि पुष्करिणि काप्लव निर्मलाङ्गाः श्रेयोर्धिनोहर विरिञ्च सनन्दनाद्याः द्वारे वसन्ति वरवेत्र हतोत्तमाङ्गाः श्रीवेङ्कटाचलपते तव सुप्रभातम् श्रीशेषशैल गरुडाचल वेङ्कटाद्रिनारायणाद्रिवृषभाद्रिषाद्रिमुख्याम् आख्याम् त्वदीयवसतेरनिशम् वदन्ति श्रीवेङ्कटाचलपते तव सुप्रभातम् सेवा परा शिव सुरेश कृशानु धर्म रक्षोऽम्बुनाथ पवमान धनाधिनाथ बद्धाञ्जलि प्रविलसन् निज शीर्ष देशा श्रीवेङ्कटाचलपते तव सुप्रभातम् घाटीषु देविह गराज मृगाधिराज नागाधिराज गजराज हयाधिराज स्वस्वाधिकार महिमाधिकमर्थयन्ते श्रीवेङ्कटाचलपते तव सुप्रभातम् सूर्येन्दुभौम बुधवाक्परिकाव्यसौरिस्वर्भानुकेतुरिविशत्परिषत् प्रधानाः त्वद्दातदात चरमावधिदातदातः श्रीवेङ्कटाचलपते तव सुप्रभातम् त्वत्पादधूलिभरितत्पुरितोत्तमाङ्गाः स्वर्गापवर्गजलपेक्ष निजान्तरङ्गाः कल्पागमाकलनयाकुलताम् लभन्ते श्रीवेङ्कटाचलपते तव सुप्रभातम् त्वद्गोपुराग्रशिखराणि निरीक्षमाणाः स्वर्गापवर्गपदवीम् परमाश्रयन्तः मर्त्या मनुष्य भुवने मतिमाश्रयन्ते श्रीवेङ्कटाचलपते तव सुप्रभातम् श्रीभूविनायक दयादिगुणामृताब्धे देवाधिदेव जगदेक शरण्यमूर्ते श्रीमन्ननन्त गरुडाधिभिरक्षिताङ्घ्रे श्रीवेङ्कटाचलपते तव सुप्रभातम् श्रीपद्मनाभ पुरुषोत्तम वासुदेव वैकुण्ठ माधव जनार्दन चक्रपाणे श्रीवत्स चिह्न शरणागत पारिजात श्रीवेङ्कटाचलपते तव सुप्रभातम् कन्दर्पदर्पहर सुन्दर दिव्यमूर्ते कान्ताकुजाम्बुरुह कुड्मल लोल दृष्टे कल्याण निर्मल गुणाकर दिव्य कीर्ते श्रीवेङ्कटाचलपते तव सुप्रभातम् मीनाकृते कमठकोल नृसिंहवह्निम् स्वामीन् परश्वत तपोधन रामचन्द्र शेषांश राम यदुनन्दन कल्किरूप श्रीवेङ्कटाचलपते तव सुप्रभातम् लेलालवङ्ग घनसार सुगन्धितीर्थम् दिव्यम् वियत्तरिति हेम घटेषु पूर्णम् धृत्वाद्य वैदिक शिखामणयः प्रदृष्टाः तिष्ठन्ति वेङ्कटपते तव सुप्रभातम् भास्वानुदेति विगचानि सरोरुहाणि सम्पूरयन्ति निनदैक बुभो विगङ्गा श्रीवैष्णवास्तत समर्थित मङ्गलास्ते धामाश्रयन्ति तव वेङ्कट सुप्रभातम् ब्रह्मादयसुरवरात् समहर्षयस्ते सन्तः सनन्दन मुखात् तव योगिवर्याः धामान्तिके तव हि मङ्गलवस्तुहस्ताः श्रीवेङ्कटाचलपते तव सुप्रभातम् लक्ष्मीनिवास निरवद्य गुणैक सिन्धो संसार सागर समुत्तरणैक सेतो वेदान्त वेद्य निज वैभव भक्त भोग्य श्रीवेङ्कटाचलपते तव सुप्रभातम् लक्ष्मीनिवास निरवद्य गुणैक सिन्धो संसार सागर समुत्तरणैक सेतो वेदान्त वेद्य निज वैभव भक्त भोग्य श्रीवेङ्कटाचलपते तव सुप्रभातम् इत्थम् वृषाचलपतेरिह सुप्रभातम् ये मानवाः प्रतिदिनम् पठितुम् प्रवृत्ताः तेषाम् प्रभात समये स्मृतिरङ्गभाजाम् प्रज्ञाम् परार्थ सुलभाम् परमाम् प्रसूते इत्थम् वृषाचलपतेरिह सुप्रभातम् ये मानवाः प्रतिदिनम् पठितुम् प्रवृत्ताः तेषाम् प्रभात समये स्मृतिरङ्गभाजाम् प्रज्ञाम् परार्थ सुलभाम् परमाम् प्रसूते कमलाकुचचूचुक कुङ्कुमतो नियतारुणिता तुलनीलतनो कमलायतलोचन लोकपते विजयी भव वेङ्कट शैलपते कमलाकुचचूचुक कुङ्कुमतो नियतारुणिता तुलनीलतनो कमलायतलोचन लोकपते विजयी भव वेङ्कट शैलपते चतुर्मुख षण्मुख पंच मुख प्रमुखाखिल दैवत मौलिमणे शरणागत वत्सल सार निधे परिपालय मां वृषशैलपते अतिवेलतया तव दुर्विषहैरनुवेलकृतैरपराधशतैः हरितं त्वरितं वृषशैलपते परया कृपया परिपाहि हरे अधिवेङ्कटशैलमुदारमतेर्जनदाभिमताधिकदानरतात् परदेवतया गदितान्निगमै कमलादयितान्न परं कलये कलवेणुरवावशगोपवधूषणकोटिवृतास्मरकोटितमात् प्रतिवल्लविकाभिमतात् सुखदा वसुदेवसुतान्न परं कलये अभिराम गुणाकर दाशरथे जगदेक धनुर्धर धीरमते रघुनायक राम रमेश विभो वरदो भवदेव दया जलधे अवनीत नया कमनीय करम रजनीकर चारु मुखाम्बुरुहम् रजनीचर राज तमो मिहिरम् महनीयमहम् रघुराममये सुमुखम् सुहृदम् सुलभम् सुखदम् स्वनुजम् च सुखाय ममोघशरम् अपहाय रघुद्वहमन्यमहम् न कथञ्चन कञ्चन जातु भजे विना वेङ्कटेशम् न नाथो न नाथ सदा वेङ्कटेशम् स्मरामि स्मरामि हरे वेङ्कटेश प्रसीद प्रसीद प्रियम् वेङ्कटेश प्रयच्छ प्रयच्छ विना वेङ्कटेशम् न नाथो न नाथ सदा वेङ्कटेशम् स्मरामि स्मरामि हरे वेङ्कटेश प्रसीद प्रसीद प्रियम् वेङ्कटेश प्रयच्छ प्रयच्छ अहम् दूरतस्ते पदाम् भोजयुग्म प्रणामे क्षयागत्य सेवाम् करोमि सकृत्ते दयानित्य सेवाफलम् त्वम् प्रयच्छ प्रयच्छ प्रभो वेङ्कटेश अज्ञानिना मया दोषान् तेषान् विहितान् हरे क्षमस्वत्वम् क्षमस्वत्वम् शेषशैलशिखामणे अज्ञानिना मया दोषान् तेषाम् विहितान् हरे क्षमस्वत्वम् क्षमस्वत्वम् शेषशैलशिखामणे ईशानाम् जगतोऽस्य वेङ्कटपतेर्विष्णोः पराम् प्रेयसीम् तद्वक्षस्थलनित्यवातरसिकाम् सत्क्षान्ति संवर्धिनीम् पद्मालङ्कृतपाणिपल्लवयुगाम् पद्मातनस्थाम् श्रियम् वात्सल्यादि गुणोज्ज्वलाम् भगवतीम् वन्दे जगन्मातरम् ईशानाम् जगतोऽस्य वेङ्कटपतेर्विष्णोः पराम् प्रेयसीम् तद्वक्षस्थलनित्यवासरसिकाम् तत्क्षान्ति संवर्धिनीम् पद्मालङ्कृतपाणिपल्लवयुगाम् पद्मासनस्थाम् श्रियम् वात्सल्यादिगुणोज्ज्वलाम् भगवतीम् वन्दे जगन्मातरम् श्रीमन्कृपाजलनिधे कृत सर्वलोक सर्वज्ञशक्तनत वत्सल सर्वशेषिन् स्वामिन् सुशील सुलभाश्रित पारिजात श्रीवेङ्कटेश चरणौ शरणम् प्रपद्ये श्रीमन्कृपाजलनिधे कृत सर्वलोक सर्वज्ञशक्तनत वत्सल सर्वशेषिन् स्वामिन् सुशील सुलभाश्रित पारिजात श्रीवेङ्कटेश चरणौ शरणम् प्रपद्ये आनूपुरार्पित सुजात सुगन्धि पुष्प सौरभ्य सौरभकरौ समसन्निवेशौ सौम्यौ सदानुभवनेऽपि नवानुभाव्यौ श्रीवेङ्कटेश चरणौ शरणम् प्रपद्ये सद्यो विकासितमुदित्वरसान्द्रराग सौरभ्य निर्भर सरोरुप साम्यवार्ताम् सम्यक्षुसाहस पदेषु विलेखयन्तौ श्रीवेङ्कटेश चरणौ शरणम् प्रपद्ये रेखामयध्वज सुधाकर शात पद्र वज्राम्बुशाम्बुरुह कल्पक शङ्खचक्रैः भव्यैरलङ्कृत तलौ परतत्त्वचिह्नैः श्रीवेङ्कटेश चरणौ शरणम् प्रपद्ये ताम्रोधरद्युति पराजित पद्मरागौ बाह्यै महोभिरभिभूत महेन्द्र नीलौ उज्जन्नकांशु बिरुदत्त शशाङ्कभासौ श्रीवेङ्कटेश चरणौ शरणम् प्रपद्ये सप्रेमभीति कमलाकर पल्लवाभ्याम् संवाहनेऽपि तव विक्रममादधानौ कान्ताववाङ्मनसगोचरतौ कुमार्यौ श्रीवेङ्कटेश चरणौ शरणम् प्रपद्ये लक्ष्मीमयी तदनुरूप निजानुभाव नीराजि दिव्य महिषीकर पल्लवानाम् आरुण्यतम् क्रमणत किल सान्द्रलागौ श्रीवेङ्कटेश चरणौ शरणम् प्रपद्ये निज्ञानमद्भिः शिवादि किरीट कोटि प्रत्युक्त दीप्त नवरत्न महप्ररोहैः नीराजनाभिधिमुदारमुपादधानौ श्रीवेङ्कटेश चरणौ शरणम् प्रपद्ये विष्णौ पदे परमयित्युदित प्रशंसौ यौ मध्य उत्सहिति भोग्यतयाप्युपातौ भूयस्तथेति तव पाणितल प्रतिष्ठौ श्रीवेङ्कटेश चरणौ शरणम् प्रपद्ये पार्थायतः शतसारथिना त्वयैव यौ दर्शितौ सगरणौ शरणम् व्रजेति भूयोऽपि मह्यमिहतौ करदर्शितौ ते श्रीवेङ्कटेश चरणौ शरणम् प्रपद्ये मन्मूढिकालियपणे विकटाटवीषु श्रीवेङ्कटाद्रिशिखरे चिरजिश्रुतीनाम् चित्तेऽप्यनन्यमनसाम् सममाहितौ ते श्रीवेङ्कटेश चरणौ शरणम् प्रपद्ये अम्लान दृश्यतवनीतरकीर्णपुष्पौ श्रीवेङ्कटाद्रिशिखराभरणायमानौ आनन्दिताखिलमनोनयनौ तवैतौ श्रीवेङ्कटेश चरणौ शरणम् प्रपद्ये प्रायः प्रपन्न जनता प्रथमावगाह्यौ मातुस्तनाविव शिशोरमृतायमानौ प्राप्तौ परस्पर तुलामतुलान्तरौ ते श्रीवेङ्कटेश चरणौ शरणम् प्रपद्ये सत्त्वोत्तरैतततसेव्य पदाम्बुजेन संसारतारकदयार्द्रदृगञ्चलेन सौम्योपयन्तु मुनिनाममदर्शितौ ते श्रीवेङ्कटेश चरणौ शरणम् प्रपद्ये तत्त्वोत्तरै सततसेव्य पदाम्बुजेन संसारतारकदयार्द्रदृगञ्चलेन सौम्योपयन्तु मुनिनाममदर्शितौ ते श्रीवेङ्कटेश चरणौ शरणम् प्रपद्ये श्रीश्रिया घटिकया त्वदुपाय भावे प्राप्ये त्वयि स्वयमुपेय दया स्फुरन्त्या नित्याश्रिताय निरवद्य गुणाय तुभ्यम् श्याम् किम् करो वृषगिरीश न जातु मह्यम् श्रीश्रिया घटिकया त्वदुपाय भावे प्राप्ये त्वयि स्वयमुपेय दया स्फुरन्त्या नित्याश्रिताय निरवद्य गुणाय तुभ्यम् याम् किम् करो वृषगिरीश न जातु मह्यम् श्रियकान्ताय कल्याण निधये निधयेऽर्थिनाम् श्रीवेङ्कटनिवासाय श्रीनिवासाय मङ्गलम् श्रियकान्ताय कल्याण निधये निधयेऽर्थिनाम् श्रीवेङ्कटनिवासाय श्रीनिवासाय मङ्गलम् लक्ष्मीसविभ्रमालोकसुभ्रूविभ्रमचक्षुषे चक्षुषे सर्वलोकानाम् वेङ्कटेशाय मङ्गलम् श्रीवेङ्कटाद्रिशृङ्गाद्रमङ्गलाभरणाङ्घ्रये मङ्गलानाम् निवासाय श्रीनिवासाय मङ्गलम् सर्वावयवसौन्दर्य सम्पदा सर्वचेतसाम् सदा सम्मोहनायास्तु वेङ्कटेशाय मङ्गलम् नित्याय निरवद्याय सत्यानन्दचिदात्मने सर्वान्तरात्मने श्रीमद्वेङ्कटेशाय मङ्गलम् स्वतः सर्वविदे सर्वशक्तये सर्वशेषिणे सुलभाय सुशीलाय वेङ्कटेशाय मङ्गलम् परस्मै ब्रह्मणे पूर्णकामाय परमात्मने प्रयुञ्जे परतत्त्वाय वेङ्कटेशाय मङ्गलम् आकालतत्त्वमश्रान्तमात्मनामनुपश्यताम् अतृप्त्यमृतरूपाय वेङ्कटेशाय मङ्गलम् प्रायस्वशरणौ पुंसाम् शरण्यत्वेन पाणिना कृपया दिशते श्रीमद्वेङ्कटेशाय मङ्गलम् दयामृततरङ्गिण्या तरङ्गैरिव शीतलैः అభాంగై సించతే విశ్వం వెంకటేశాయ మంగళం. శ్రద్భూషాంబరహేతీనాం సుషమావసమూర్తయే సర్వార్తి సమనాయాస్తు వెంకటేశాయ మంగళం. శ్రీ వైకుంఠ విరక్తాయ స్వామి పుష్కరిణీతటే రమయా రమమాణాయ వెంకటేశాయ మంగళం. శ్రీ వైకుంఠ విరక్తాయ స్వామి పుష్కరిణీతటే రమయా రమమాణాయ వెంకటేశాయ మంగళం. శ్రీమత్సుందర జామాతృమునిమానసవాసినే సర్వలోక నివాసాయ శ్రీనివాసాయ మంగళం. మంగళాశాసన పరైర్మదాచార్య పురోగమై సర్వైశ్చ పూర్వైరాచార్యై సత్కృతాయాస్తు మంగళం.